अन्नश्चित्रमेषण्यसि चिकित्वान् प्रेजग्मानम् वास्त्रम् वा बृधद्यैः अर्थस्यदासुसवासोऽव्योष्टौ तक्षद्वज्रम् रेत्रसुरमपिन्वत् स येद्युता विद्युता वेदि सामासं यो नेमसरत्वा स साध सतने लेभिप्रसहानो अस्य भ्रातुर्न ऋते सप्तसस्य मायाः समाजम् जापादुष्पदायाम् स्वर्षातापरिषदत्सरिष्यन् अनर्वायच्छत दूरस्य वेदोघ्नान् चित्रदेवा अभिवर्पसा भूत् सजक्ष्योपनीर्गोश्वर्वायुगोधन्यासुश्रीः अपादो यत्र युद्यासो रथाद्रोण्यश्वासीरते घृतम् वा शरद्रेभिरसस्तवारगर्भाहित्ये गजमारे अवध्यागात् अम्रस्य मन्ये मिथुना विभौरि अन्नमभीत्या रोदयन्मुषायन् सेद्दासम् द्विरवम्बतिर्दङ्गरलक्षन्त्रि शीर्षानन्दमन्यत् अस्य त्रितोऽन्वोजसा वृधानो विपापराघमयो अग्रयाहन् सर्वे मनोषमूर्धसानासा विरदर्शसानाय सर्वम् सन्दृतमोनघोषोऽस्मत्सुजातः पुरोभिरदर्गन्धस्युहत्ये सो अभ्रियो न यमासौ धन्यान् क्षयाय गातुम् विदन्नो अस्मे उपयत्सेदनिन्दम् शरीरैश्येनो योपाष्टिरहन्ति तस्यून् सम्राधदस्वसानेभिरस्य उत्साय सुष्टम् कृपणे परादात् अयम् कविमानयच्छस्यमानमत्रम् यो अस्य सनीतोतनृणाम् अयम् तस्यन्दर्ये विरस्यलक्ष्मो देवेभिर्वरो नो नमाजी अयम् कनीर ऋतुपा वेद्यमीमीदारम् यश्चतुष्पात् अस्य स्तोमेभिरौसि च ऋजिष्वा बृहन्दरयदृढवेरभिप्रोः श्रुत्वा यद्य जतो दीतयद्येः पुरायानो अभिवर्प सा भूत् एवामो असुरवक्षदायवम् रगः पद्भिरुप सर्पदिन्द्रम् शरीरानः करति सुमतिमस्मादिषमूर्जम् सुक्षितिम् विश्वमाभाः